तामर प्रणत मौलिमणि प्रभाणां उद्योतकं दलित पापतमोवितानं सम्यक् प्रणम्य जिनपादयुगं युगादौ आलम्बनं भवजले पततां जनानां
यः संस्तुतः सकल वाङ्मयतत्त्वबोधात् उद्भूत बुद्धिपटुभिः सुरलोकनाथैः स्तोत्रैर्जगत्त्रितय चित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्
बुद्ध्या विनापि विबुधार्जित पादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोहम् बालं विहाय जलसंस्थितमिन्दुबिम्बम् अन्यः क इच्छति जनः सहसा ग्रहीतुम् वक्तुं गुणान् गुणसमुद्रशशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या कल्पान्तकालपवनोद्धतनक्रचक्रम् को वा तरीतुमलमम्बुनिदिम्बुजाभ्याम्
सोऽहं तथापि तव भक्तिवशान् मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः प्रीत्यात्मवीर्यं विचार्य मृगो मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम्
अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरी कुरुते बलां मां यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिका निकरैकहेतु त्वत्संस्तवेन भवसन्ततिसन्निबद्धम् पापं क्षणात् क्षयमुपैति शरीरभाजाम् आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशु भिन्नमिव सार्वरमन्धकारम्
मत्वेति नाथ तव संस्तवनं मयेदम् आरभ्यते तनु धियापि तव प्रभावात् चेतो हरिष्यति सतां नलिनीदलेषु मुक्ता फलद्युत
अहम् तवस्तव नमास्तसमास्तदोषम् त्वत्संकथापि जगतां दुरितानि हन्ति दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि नात्यद्भुतं भुवनभूषणभूतनाथ भूतैर्गुणैर्भुवि भवन्तमभीष्टुवन्ता तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति
दृष्ट्वा भवन्तमनिमेष विलोकनीयम् नान्यत्र तोषमुपयाति जनस्य चक्षुः पित्वा पयः शशिकरद्युतिदुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत्
यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्वं त्रिभुवनैकललामभूत तावन्त एव खलु ते प्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति वक्त्रं क्वते सुरनरोरगनेत्रहारी निःशेषनिर्जितजगत्त्रितयोपमानम् बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम्
सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रागुणास्त्रिभुवनं तव लङ्घयन्ति ये संश्रिता स्त्रीजगदीश्वरनाथमेकं कस्तान्निवारयति सञ्चरतो यथेष्टम्
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिर्नीतम् मनागपि मनो न विकारमार्गम् कल्पान्तकालमरुता चलिता चलेन किं मन्दराद्रिशिखरं चलितं कदाचित् निर्धूमवर्तिरपवर्जिततैलपूर कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि गम्यो न जातु मरुतां चलिता चलानाम् दीपोपरस्त्वमसि नाथ जगत्प्रकाशः
नास्तं कदाचिदुपरि जगन्ति नाम्भोधरोदर निरुद्ध महाप्रभावः सूर्यातिशायी महिमासी मुनिन्द्रलोके
नित्योदयं दलितमोहमहान्धकारम् गम्यं नराहुवदनस्य नवारिदानां विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् किं शर्वरीषु शशिनान्निविवस्वता वा युष्मन्मुखेन्दुदलितेषु तमःसुनाथ निष्पन्नशालिवनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारनं रे
ज्ञानं यथा त्वयि विभाति कृतावकाशम् नैवं तथा हरिहरादिषु नायकेषु तेजस्फुरन्मणिषु याति यथा महत्त्वम् नैवं तु काचशकले किरणाकुलेऽपि
मन्ये वरम् हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि स्त्रीणां शतानि शतशो जनयन्ति पुत्रां नान्यासुतं त्वदुपमं जननि प्रसूता सर्वादिशो दधति भानि सहस्ररश्मिं प्राच्यैव दिक् जनयति स्फुरदंशुजालम्
त्वामामनन्ति मुनयः परमं पुमांसम् आदित्यवर्णममलं तमसः परस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थः
त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यम् ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् योगीश्वरं विदितयोगमनेकमेकम् ज्ञानस्वरूपममलं प्रवदन्ति सन्तः बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् धातासि धीरशिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय तुभ्यं नमस्त्रिजगत परमेश्वराय तुभ्यं नमो जिन भवो दधि शोषणाय
को विस्मयोत्र यदि नाम गुणैरशेषैः त्वं संश्रितो निरवकाशतया मुनीश दोषैरुपात्त विविधाश्रय जात गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि उच्चैरशोकतरुसंश्रितं मयूखम् आभातिरूपममलं भवतो नितान्तम् स्पष्टोल्लसत्किरणमस्ततमोवितानम् बिम्बं रवेरिव पयोधर पार्श्ववर्ति
सिंहासने मणिमयूखशिखा विचित्रे विभ्राजते तव वपुः कनकावदातम् बिम्बं विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीवसहस्ररश्मेः
कुन्दावदात चलचामरचारुशोभम् विभ्राजते तव वपुः कलधौतकान्तम् उद्यच्छशङ्कशुचिनिर्झरवारिधारम् उच्चैस्तटं सुरगिरेरिव शातकौम्भम् छत्रत्रयं तव विभाति शशाङ्ककान्तम् उच्चैः स्थितं स्थगितभानुकरप्रतापम् मुक्ताफलप्रकरजालविवृद्धशोभम् प्रख्यापय त्रिजगतः परमेश्वरत्वम्
त्रैलोक्यलोकशुभसङ्गमभूतिदक्षः सद्धर्मराज जय घोषण घोषकः सन् खेदुन्दुभिर्ध्वनति ते यशसः प्रवादी
मन्दारसुन्दर न मेरुसुपारिजात सन्तानकादिकुसुमोत्करवृष्टिरुद्धा गन्धोदबिन्दुशुभमन्दमरुत्रपात दिव्यादिवः पतति ते वयसान्ततिर्वा शुम्भत्प्रभावलय भूरिविभाविभोस्ते लोकत्र त्रये द्युतिमतां द्युतिमाक्षिपन्ति प्रोद्यत् दिवाकर निरंतर भूरि संख्या दीप्त्या जगत्यपि निशामपि सौम सौम्या
स्वर्गापवर्ग गम मार्ग विमार गणेश सद्धर्म तत्व कथनैक पटु त्रिलोक्या दिव्य ध्वनिर्भवति ते विशदार्थ सर्व भाषा स्वभाव परिणाम गुणै प्रयोज्य
उन्निन्द्र हेम नव पंकज पुंज कांति पर्युल्लसन्नखमयूख शिखाभिरामौ पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति थम यथा तव विभूतिर्भुज्जिनेन्द्र धर्मोपदेशन विधौ न तथा परस्य यादृक् प्रभादिन कृतः प्रहतांधकारा तादृक् कुतो ग्रहगणस्य विकाशिनो
च्योतन्मदा विल विलोल कपाल मूल मत्त भ्रमत भ्रमर नाद विवृद्ध कोपम ऐरावता भमि भमुद्धत मापतन्तम् दृष्ट्वा भयं भवति नो भवदाश्रितानां
भिन्नेव कुम्भगलदुज्ज्वलशोणितात् मुक्ता फलप्रकरभूषित भूमिभाग बद्धक्रमः क्रमगतं हरिणादिपोऽपि नाक्रामति क्रमयुगा चलसंश्रितं ते कल्पान्तकालपवनोद्धतवन्निकल्पम् दावानलं ज्वलितमुज्ज्वलमुत्फुलिङ्गं विश्वं जिगत्सुमिव सम्मुखमापतन्तं त्वन्नाम कीर्तनजलं शमयत्यशेषम्
रक्ते क्षणं समदकोकिलकण्ठनीलम् क्रोधोद्धतं फणिनमुत्फणमापतन्तम् आक्रामति क्रमयुगेन निरस्तशङ्कस् त्वन्नाम नागदमनि हृदयस्य पुंसः
वल्गत्तुरङ्गगजगर्जितभीमनादम् आदौ बलं बलवतामपि भूपतीनाम् यद्दिवाकरमयूखशिखापवीदम् त्वत्कीर्तनात्तम इवाशुभिदामुपैति कुन्ताग्रभिन्न गजशोणितवारिवाः वेगावतार तरणातुर योध भीमे युद्धे जयं विजित दुर्जय जेय पक्षा त्वत्पाद पंकज वनाश्रयिणो लभन्ते
अम्भो निधाक्षुभित भीषण नक्र चक्र पाठीन पीठ भय दोल्वण बाणवाग्न रंगतरंग शिखर स्थित यान पात्रास त्रासं विहाय भवत स्मरणात् प्रचन्ते
उद्भूत भीषण जलोदर भार बुग्नः शोच्यां दशामुपगताश्च्युत जीविताशः त्वत्पाद पंकजरजोऽमृत दीग्धदेहा मर्त्या भवन्ति मकरध्वज तुल्यरूपाः आपादकण्ठमुरुशृङ्खलवेष्टितङ्गा गाढं बृहन्निगडकोटिनिगृष्टजङ्गा त्वन्नाम मन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति
मत्तद्विपेन्द्र मृगराज दवानलाहि संग्राम वारिधि महोदर बन्धनोत्थम् तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमान् धीते
स्रजं तव जिनेन्द्रगुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पां धत्ते जनो य इह कण्ठगतामजस्रम् तं मानतुङ्गमवशा समुपैति